इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधितिवारी। आदौ मुख्यवार्ताः। उत्तराखण्ड राज्ये अल्मोड़ा जनपदे अद्य जातायां बसयान दुर्घटनायां न्यूनातिन्यूनं 37 जनाः मृताः 15 जनाश्च व्रणिताः अभवन्। राष्ट्रपति प्रधानमन्त्रिणौ शोकं प्रकटितवन्तौ। झारखण्ड महाराष्ट्र राज्ययोः विधानसभा निर्वाचनाय प्रचाराभियानं द्रुतगत्या विधीयते। भारतीय जनता पार्टीति दलस्य वरिष्ठ नेता प्रधानमन्त्री च नरेन्द्र मोदी झारखण्डस्य गढ़वा जनपदे एकां जनसभां समबोधयत्। केन्द्रीय मन्त्री प्रह्लाद जोशी नवदिल्ल्यां अन्ताराष्ट्रिय सौरगठबन्धन इत्येतस्य सप्तमं सत्रं सम्बोधितवान्। प्रोक्तवान् च यत् भारतेन 90 गीगावाट परिमिता सौरक्षमता अधिगता। विदेशमन्त्रिणा डॉ एस जयशंकरेण अद्य ब्रिस्बेन इत्यत्र भारतस्य नवीनस्य महावाणिज्य दूतावासस्य उद्घाटनं कृतम्। अपि च टेबल टेनिस क्रीडायां भारतस्य हरमीत देसाई इत्यनेन वेनेजुएलायाम् आयोजितायां WTT फीडर कैर्कस इति क्रीडायां पुरुषैकल स्पर्धा पुरुषाणां युगल स्पर्धा च विजिता। अथ वार्ताः विस्तरेण। उत्तराखण्ड राज्ये अद्य प्रातः अल्मोड़ा जनपदस्य सल्ट क्षेत्रे दुःखावह एका दुर्घटना जाता, यदा कूपी नगरे एकं बसयानं गभीर गिरीषु पतितं, येन 37 जनाः मृताः 15 जनाः च व्रणिताः अभवन्। एतद् लोकयानं 150 यात्रिकैः सह पौड़ी जनपदस्य नैनीडांडा क्षेत्रात् प्रति गच्छदासीत् इति कथ्यते। सघन सहायोद्धार कार्याणि च घटना प्रभावित क्षेत्रे प्रचलन्ति। SDRF NDRF इत्येतेषां बलानां स्थानीय प्राधिकारिणां च दलानि उद्धार कार्याणि सक्रियतया निर्वहन्ति। प्रधानमन्त्री नरेन्द्र मोदी, उत्तराखण्डस्य मुख्यमंत्री पुष्कर सिंह धामी च मृतानां जनानां विषये गभीरं दुःखं प्रकटितवन्तौ। प्रधानमन्त्री दुर्घटनायां मृतानां प्रत्येकस्य निकटवर्तीनां कृते प्रधानमन्त्री राष्ट्रिय सहाय्य कोषात् 2 लक्ष रूप्यकाणां अनुग्रह राशेः घोषणाम् अकरोत्। व्रणितेभ्यः 50,000 रूप्यकाणि अपि दास्यते। मुख्यमंत्री मृतानां परिवाराणां कृते 4 लक्ष रूप्यकाणां व्रणितेभ्यः 1 लक्ष रूप्यकाणां च आर्थिक साहाय्यं दातुम् आदिशत्। असौ कुमाऊ विभागस्य आयुक्ताय घटनायाः न्यायिक निरीक्षणं कर्तुं निर्देशम् अपि दत्तवान्। झारखण्ड महाराष्ट्र राज्ययोः विधानसभा निर्वाचनाय प्रचाराभियानं द्रुतगत्या विधीयते। भारतीय जनता पार्टीति दलस्य वरिष्ठ नेता प्रधानमन्त्री च नरेन्द्र मोदी आक्षिप्तवान् यत् हेमंत सोरेन नेतृत्वयुतेन प्रशासनेन विगतेषु 5 वर्षेषु झारखण्डस्थैः जनैस्साकं वञ्चनं कृतमस्ति। श्रीमोदी गढ़वास्थलस्य चेतना मैदान इत्यत्र एकां जनसभां संबोधयन् आसीत्। प्रोक्तवान् च यत् झारखण्ड मुक्ति मोर्चा कांग्रेस राष्ट्रीय जनता दलैः जनैस्साकं छलं कृतमस्ति। झारखण्ड राज्ये प्रगतिं द्विगुणीकर्तुं डबल इंजन इत्येतस्य प्रशासनं निर्मातुं प्रधानमन्त्री स्वीय विचारं प्रकटितवान्।
हम ईमानदारी से झारखंड के विकास की हर कोशिश पूरी ताकत से काम कर रहे हैं। जब यहाँ आप डबल इंजन की सरकार बनाएंगे तो राज्य का विकास भी डबल तेजी से होने लगेगा। भाजपा झारखंड की सुविधा, सुरक्षा, स्थिरता और समृद्धि की गारंटी के साथ चुनावी मैदान में उतरी है।
श्री मोदी अग्रे समुदीरितवान् यत् भाजपेति दलं झारखण्ड राज्यस्य सुरक्षा, स्थिरता, समृद्धिनां वचनैः सममेव नैर्वाचनिकरणे अवतरितम्। तत्रैव चाईबासा इत्यत्र विजय संकल्प सभां संबोधयन् श्रीमोदी अवदत् यत् केन्द्र प्रशासनं सम्पूर्णे राज्ये आदिवासीनां सशक्तीकरणम् अकरोत्, परञ्च हेमंत सोरेन नेतृत्वयुतेन सर्वकारेण तेषाम् अपमानं कृतमिति। प्रधानमन्त्री अवदत् यत् झारखण्ड राज्ये निर्वाचनं तस्मिन् समये क्रियते यदा सम्पूर्ण देशः विकसित भारतस्य संकल्पेन अग्रे गच्छन् अस्ति। प्रधानमन्त्री श्रीमोदी झारखण्ड राज्ये झामुमो नेतृत्वस्य संयुतेः आलोचनां कृत्वा उक्तवान् यत् एतद्दलं अवैध आव्रजकानां समर्थनम् अपि अकरोत्। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च न्यूज ऑन एआईआर इति चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। नवीन नवीकरणीयोर्जा मन्त्री प्रहलाद जोशी अद्य अवोचत् यत् भारतेन वर्षं 30+2000 यावत् 500 गीगावाट परिमितां नवीकरणीयोर्जा क्षमतां प्राप्तुं 90 गीगावाट परिमितां सौरक्षमतां यावत् लक्ष्यं स्थापितम्। श्रीजोशी नवदिल्ल्याम् अन्ताराष्ट्रिय सौर एकरूपतायाः 7वें सत्रस्य उद्घाटन समारोहं सम्बोधयन् आसीत्। असौ अग्रे कथितवान् यत् प्रशासनेन 37.5 गीगावाट मित युतानां नवीकरणीय क्षमता युतेभ्यः 50 सौरोद्यानेभ्यः स्वीकृतिः अपि प्रदत्ता। राष्ट्रपति पदासीना द्रौपदी मुर्मुः अद्य राष्ट्रपति भवने भारतीय नागर विमानन क्षेत्रे उपलब्धि प्राप्तानां महिलानां समूहेन सह वार्तालापं कृतवती। एषा सभा दि प्रेसिडेंट विद द पीपल्स इति उपक्रमस्य अन्तर्गतम् अभवत्, यस्योद्देशं जनैः सह गहनं सम्बन्धं स्थापयितुं तेषां योगदानस्य परिचयः च भवेदिति। अस्मिन् अवसरे राष्ट्रपतिः अवदत् यत् भारतस्य नागरिक विमानन क्षेत्रे विभिन्नेषु परिचालन क्षेत्रेषु तथा च तान्त्रिक क्षेत्रेषु महिलाः महत्वपूर्णां भूमिकां निर्वहन्ति इति। राष्ट्रपतिः मुर्मुः न्यगादीत् यत् 15% वायुयातायात नियन्त्रकाः महिलाः सन्ति, 11% विमानप्रेषकाः महिलाः सन्ति, 9% आन्तरिक्ष अभियन्तारः च महिलाः एव सन्ति। राष्ट्रपतिः प्रोक्तवती यत् गतवर्षे वाणिज्य अनुज्ञापत्रं प्राप्ताः 18% विमानचालकाः महिलाः एव आसन्। राष्ट्रपतिः प्रावोचत् यत् प्रशासनस्य सर्वसमावेशक प्रयासैः नागरिक विमानन क्षेत्रे महिलानां प्रगतिः संवर्धिता अस्ति। विदेशमन्त्रिणा डॉ एस जयशंकरेण अद्य ब्रिस्बेन इत्यत्र भारतस्य नवीनस्य महावाणिज्य दूतावासस्य उद्घाटनं कृतम्। डॉ जयशंकरेण अस्मिन् अवसरे प्रोक्तं यत् अनेन दूतावासेन क्विसलैंडेन साकं भारतस्य सम्बन्धानां सुदृढीकरणाय, व्यापारवर्धनाय, शैक्षिक सम्पर्क विस्ताराय, भारतीय मूलस्य जनेभ्यः सौविध्य प्रदानाय च योगदानं प्रदास्यते। जयशंकरेण प्रोक्तं यत् अनेन महावाणिज्य दूतावासेन सह एव ऑस्ट्रेलियायां निवसद्भिः भारतीयैः सह प्रधानमन्त्रिणः श्रीमोदिनः कृतवचनस्य पालनं जातम्। तेन क्विसलैंडस्य राज्यपालेन डॉ जीनेट यंग इत्यनया सह अपि मेलनं कृतम्। उपवेशनावधौ द्वावयु नेतारौ भारत क्विसलैंड देशयोर्मध्ये आर्थिक व्यापार निवेशानां सहयोगं सुदृढीं कर्तुं विविधान् अवसरान् अधिकृत्य चर्चाम् अपि कृतवन्तौ। भारतेन ह्यः कनाडायाः ब्राम्प्टनस्थे ओन्टारिया नगरे हिन्दू सभा मन्दिरे अतिवादिभिः पृथक्वादिभिः च कृतं हिंसाचरणम् अधिकृत्य चिन्ता प्रकटिता अस्ति। विदेशमन्त्रालयस्य प्रवक्ता रणधीर जयसवालः प्रोक्तवान् यत् भारतं कनाडा सर्वकारम् अवोचत् यत् तेन सर्वाण्यपि पूजनस्थलानि एतादृशैः आक्रमणैः रक्षितानि भवेयुः। भारतेन आशा प्रकटिता यत् कनाडा सर्वकारेण हिंसक प्रकरणे सम्मिलितान् जनान् विरुध्य न्यायाचरणं विधातव्यम्। ओटावा नगरे भारतीयोच्चायोगेन ओन्टारिया नगरे वाणिज्य दूतावास शिबिरात् बहिः हिंसक व्यवधानम् अधिकृत्य निराशा व्यक्तीकृता। आयोगेन कथितं यत् ब्राम्प्टन इत्यत्र हिन्दूसभा मन्दिरेण सह वाणिज्य दूतावास शिबिरात् बहिः भारतरोधि तत्वैः हिंसक व्यवधानं विहितम्। अपि च टेबल टेनिस क्रीडायां भारतस्य हरमीत देसाई इत्यनेन वेनेजुएलायाम् आयोजितायां WTT फीडर कैर्कस इति क्रीडायां पुरुषैकल स्पर्धा, पुरुषाणां युगल स्पर्धा च विजिता। पुरुषैकल स्पर्धायां हरमीतेन फ्रांस दलस्य जो श्रेफाइड इत्येषः 0 विरुध्य 3 क्रीडनांकैः पराजितः इति वार्ताः।